मम वामतः दूरदर्शनम् अस्ति, मम पृष्ठतः व्यजनम् अस्ति, मम दक्षिणतः आसन्दाः अस्ति, मम उपरि एक्चुलि मम उपरि शुड् बि व्यजनम् अस्ति, मम अधः भूमिः अस्ति,
भूमिः अधः मम अधः भूमिः अस्ति, कटः अस्ति, मम उत्पेटिकः उत्पेटिकायाः अधः लेखनी अस्ति, आसन्दस्य अधः पुस्तकमस्ति, something under, you could say, under the table, पादरक्षकः पादरक्षणम् अस्ति,
आसन्दस्य उपरि अहम् उपविशति,
आसन्दस्य उपरि उपविशामि
मेम् वाट् विल् से इन् फ्रण्ट् आफ् मै कम्प्यूटर् इस् देयर्
मम पुरतः सङ्गणकम् अस्ति इन् फ्रण्ट् पुरतः पृष्ठतः
मम पुरतः कम्प्यूटर् अस्ति
सङ्गणकम् अस्ति yes, I am coming to everyone. Yeah, so Aparna Bhagini is done. So Krishnan Mohde, you can go now. Oh. You can do.
Mama Purutaha Durvani Asti. Mama Purutaha Mama Purutaha Mama Brashadah Sankaram Asti.
Mama Brashadah
आकाशम् अस्ति मम
मम उपरि
भूम्याम् अस्ति
कुडन्ट् हियर् प्रोपर्लि सो मम उपरि
भूम्यां पृथिवी अस्ति भूम्याम् अस्ति नद्याम् अस्ति
नद्याम् अस्ति couldn't understand what are you trying to say upri what is it in maybe in
English below me the earth is there below me that nadi is running nadi is there below me that prithvi is there that is bhumi also called prithvi a part of prithvi
okay so somehow the voice is not coming very clear I'm still struggling to understand the words so I'm not sure it's a problem on my side or your side it sounds good
no is it correct madam that is mama upri bhumiyam asti
bhumiyam you want to say bhumiyam bhumi hi asti you could say
har bhumi asti
bhumi hi so for the second word like we said you're looking at the picture here that I'm sharing so look at it Keshavasya Purutaha Shakritaha Asti so Pratmah, this, it's the Shashti Vibhakti, Purutaha, then Pratmah Vibhakti, Shaktaha Asti. So, Mama Purutaha Sanganakam Asti, Mama Purutaha Pustakam Asti. So it's Pratma Vibhakti, Pustakam Asti, Sanganakam Asti, Chashakaha Asti, Darpanaha Asti, Vatayanam Asti, Javanika Asti. So whatever it is, Pratma Vibhakti, whatever is Asti, that is Pratma Vibhakti. But if I'm talking about myself, then it's just Shashti Vibhakti. If somebody else, Balakaha Asti, Chitra, Chitre Balakaha Asti, Balakasya Purutaha Ekaha Naraha Asti. So, Balakasya Purutaha Naraha Asti. So, what your sentence was, Bhumihi Asti, Bhumyam Asti, Bhumihi Asti. Bhumihi Asti. But I don't know how it is Mam Adaha Bhumihi Asti. That would be like below me is Bhumi. You can say that. That is correct. Adha is below. Yes, Amit Modi.
Yeah, in Kesavasya, in Kesavasya is also sixth Shashti Vibhakti, right?
Mm-hmm.
And Purutaha also Shashti Vibhakti. Both.
No, Purutaha use that word as Purutaha, Vamtaha, Prishtaha, Dakshintaha. So it is showing the direction. Upari, Adha. They are just the words.
But Kesavasya is a Shashti in
Keshavarma Pratma, Keshavasya Shashti. Shaktaha Pratma.
And Purutaha, just a preposition, it's not a Vibhakti.
No, it's not a Vibhakti.
Come again, ma'am?
Yeah, so if you want to make a sentence, yes, go ahead.
Balakasya pustakam asti.
Balakasya purutaha or?
Purutaha. Balakasya purutaha brukhyaha asti. Balakasya purutaha. Purutaha is it vibhakti or is it just preposition? I am confused. Purutaha.
Purutaha is don't confuse with the Vibhakti. Just to use these words are as it is.
Okay.
They don't change. They don't change. Yes. They don't decline.
Okay.
So, Balakasya Purutaha Phalamasti.
Balakasya Purutaha Dakshinataha Vidyalaya. Vidyalayam Asti.
Mm-hmm.
Okay, got it, ma'am. Thank you.
So make all the six sentences, don't mind. Amit Mohde? Okay,
I'll try.
Hello?
Yes, I'm waiting for... Amit Mohde to make the sentences.
Okay. Aham Amitaha.
Mm-hmm.
Mama Purtaha Sanganakam Asti.
Mm-hmm.
Sanganasya Dakshintaha Vatayanam Asti.
Mm-hmm.
Sanganasya Vamataha Jalam Asti.
Mm-hmm.
मम उपरि विद्युत दीप अस्ति मम अधः mattress adaha mattress asti. I don't know what do you call for a mattress or a mat.
Kataha.
A kataha. Mama adaha kataha asti.
Very good. So thank you very much. Dhanyavadah. Now we go to Rameshwari, Ramaswami, sorry, Kshamitam, Ramaswami Mohde.
Mama grahe puratah sundara sarasi asti.
Grahasya.
Mama grahasya puratah sundara sarasi asti. मम प्रस्थाः दर्पणः अस्ति मम वामतः उपनेत्रस्य पेटिका अस्ति इज अ करेक्ट
उपनेत्रस्य पेटिका अस्ति करेक्ट
दैट मीन्स दि बॉक्स इन विच वी पुट द glasses spectacles
must be a huge, too many glasses oh, okay. Oh no that is correct actually yes because the one okay. You keep yeah that is correct
mama dakshinatah pustakam asti
upri
mama magrahasya shall I say well, now I had to go upri yeah And now we have to say below. Bhumahe adah jalam vartate. Is that correct?
Yeah, yeah. So bhumiyaha. Bhumyaha adha
jalam vartate.
Very good. Very good. Now, Dipan Mohde. Namaskara.
Mama nama Dipanaha. Mama purataha pustakam asti. Mama dakshinataha mama putra asti. मम वामतः वृक्षः अस्ति मम उपरि मेघः अस्ति मम अद्यः मम अद्य भूमिः अस्ति
मम अधः अधः भूमिः अस्ति कटः अस्ति उत्पेटिकायाः अधः अवकारिका अस्ति अवकारिका इस् द बिन् दट् अण्डर् द टेबल् इस् द बिन् अधः उत्पेटिकायाः अधः पादरक्षकः अस्ति उत्पेटिकायाः अधः लेखनी पतति फोलन् डौन्
मम शरीरस्य अधः पादम् अस्ति
मम
मम शरीरस्य अधः पादम् अस्ति
Yeah, should be correct. Adha.
What is the meaning of prushtataha?
It's in the back. Purutaha in front. Prishtataha in the back. Vamataha left. Dakshintaha right. Upari above. Adhaha below.
Okay.
So I think we've done everyone. Thank you very much. Now antaha bahihi antaha balakaha kutra asti balakaha bahihi asti is outside. Balika kutra asti, balika antaha asti. So, balakaha, grehasya antaha, bhojanshala asti. Grehasya antaha putraha asti. Grehasya antaha shishuhu asti. Bahihi shunakaha asti. Grehasya bahihi shunakaha asti. Grehasya bahihi kayanam asti. Grehasya bahihi vrikshah asti. Grehasya bahihi grehasya bahihi vidalah asti. Antaha bahihi. Antaha inside, bahihi outside. So let's just make two sentences very, very quickly. So we can start with Krishnan Mode. Do you want to go for Krishnan Mode?
Yes. Yes. Mama Grihasya Antaha Vrikshaha Asti. Mama Grihasya Bahihi Shunakaha Asti.
Mama Grihasya?
Hello?
Yes, I can hear.
Hello, some sound is going on.
Yes, in the background.
Okay, disturbance world.
I think it was coming from your side only.
Hello?
Mode.
Hello?
Yes.
Now I can hear you?
I can hear.
Yes. Mama Grihasya Bahihi Shunakah Asti. Mama Grihasya Antaha Mama Putra Asti.
Mama Grihasya Bahihi Vrikshah Asti Antaha Putra Asti. Dhanyavad.
Ashwaha Asti.
अश्वः अस्ति बिडालः अस्ति शुनकः अस्ति कार्यानम् अस्ति द्विचक्रिका अस्ति आपणः अस्ति आपणस्य अन्तः विक्रिकः अस्ति आपणस्य अन्तः सेवकः अस्ति
मम गृहस्य अन्तः पुत्रः अस्ति. Is it okay, madam?
Yes, yes. Okay. Amit Mode?
Eto Grahas. Chashika is glass, right? Chashika or ghatas?
Chashika is like a tumbler.
Mama Dakshinataha Chashaka Asti. Chashakasya अन्तः जलम् अस्ति मम वामतः वातायनम् अस्ति वातायनस्य बहिः वृक्षः अस्ति
वेरि गुड् सो वातायनस्य बहिः वृक्षः अस्ति सो आउट्
द विण्डो देयर् इस् अ ट्री.
Yes, very good. Deepan Mohde?
Balakaha Gruhasya Antaha Asti.
Balakaha
Gruhasya Antaha. The boy is inside the house. Balakaha
बालकः बहिः अस्ति देट् इस् औट्सैड् Here we are not mentioning outside of what, we are just saying Balakah Bahihi Asti. That is outside.
Antaha and Bahi, you can use without a Swasti Vibhakti also, right?
Yes, yes. So you can just you are not saying that in context with what, you are just saying he's outside and but something is inside, there is nothing. So like lekhani asti, lekhanyaha, kshamatam, lekhanyaha antah mashihi asti, purna puritnihi asti, that fill, refill. Purna purnyaha antah mashihi asti, mashihi ink, mashihi asti, so lekhani asti, so like that you can use.
Jalasya bahi puspam asti.
Yeah. Or jalasya antaha meenaha santi. That fishes are in the water.
Okay.
Then we go to Ramaswami Mohde.
मम गृहस्य बहिः बालकाः क्रीडन्ति.
वेरी गुड.
पेटिकायाः अन्तः आपर्णं सन्ति. आपर्णानि सन्ति.
यू मीन द ज्वेलरी.
Inside the box, the jewelry is there.
Yeah. Abharnani santi.
Abharnani santi.
Abharnani santi. Now I know where to find all the jewelry.
I wish it was all there. I'll ask my wife. I'm assuming.
As to. Next, we will continue with the Dvitiya Vibhakti. Dvitiya Vibhakti, Kriya Padam Asti, Kartari Padam Asti, Kriya Padam Asti. Ramaha, Ramaha Khadati. Ramaha Kartari Padam Asti. Ramaha Kim Khadati, Ramaha Phalam Khadati. क्रियापदम् अस्ति, क्रियापदं खादति. रामः कर्तरीपदम् अस्ति, रामः खादति. रामः किं खादति? रामः फलं खादति. क्रियापदम् क्रियायाः फलं यः अस्ति सः द्वितीयविभक्ति भवति. So whatever is the result of the Kriya Padam, that is the Dvitiya Vibhakti. So Balakaha Pathati, Balakaha Kim Pathati, Balakaha Pustakam Pathati. Atra Pustakam Phalam Bhavati. Balakaha Kim Pathati, Balakaha Pustakam Pathati. So Kriyayaha Phalam Kim Bhavati, Kriyayaha Phalam Pustakam Bhavati. Okay, Atra Dhatuhu Artha Vyaparahasi Kriya Padam Vyaparasya Ashrayam Asti. So Karam Phalam Ashraya Dvitiya Vibhakti Asti. So Vyaparaha Asti Phalam Asti. Vyaparaha Asti Phalam Asti. Vyaparasya Phalam Kim Bhavati. Vyaparasya Phalam Dhanam Bhavati. So atra dhanam dvitiya vibhakti bhavati. So let's use the simple sentences. Sarlam vakyam upayujye ekam vakyam vadami. Sita राम सीता बालकं ताडयति. सीता बालकं ताडयति. सीता ताडयति. सीता ताडयति. सीता किं ताडयति? क्षम्यतां, सीता कं ताडयति? सीता बालकं ताडयति. अतः बालकं द्वितीया विभक्ति भवति. सो क्रियापदं क्रियायाः फलं यः भवति सः द्वितीया विभक्ति भवति. सो पश्यति. पश्यति का पश्यति? अत्र एकः महिला अस्ति. महिलाः पटलं पश्यति. पटलं द स्क्रीन्. पटलं पश्यति. महिला पटलं पश्यति. पटलं किं भवति? पटलं पटलः प्रथमाविभक्ति अस्ति. पटलं द्वितीया विभक्ति अस्ति. महिला पटलं पश्यति. पुरुषः कं पश्यति? पुरुषः अपि पटलं पश्यति. नयति. नयति. नयति टु टेक् अवे, टु ब्रिङ्ग्. सो कः नयति? पुरुषः नयति. पुरुषः नयति. पुरुषः किं नयति? पुरुषः आसन्दः. आसन्दं नयति. आसन्दं नयति. पुरुषः आसन्दं नयति. अस्तु. बालकः जलम् आनयति. बालकः चषकम् आनयति. बालकः स्यूतम् आनयति. बालकः लेखनीम् आनयति. बालकः लेखनीम् आनयति. सो म इस् देर्. रामम् अस्ति. रामः प्रथमाविभक्ति अस्ति. रामं द्वितीया विभक्ति. म अन्तः म भवति. वृक्षः अस्ति. वृक्षं द्वितीया विभक्ति भवति. अतः एवमेव पुल्लिङ्गशब्दः. पुल्लिङ्गशब्दः रामः अस्ति. वृक्षः अस्ति. तस्य द्वितीया विभक्ति रामं भवति. वृक्षं भवति. बालकं भवति. पुरुषं भवति. नरं भवति. नरः नरं. पुरुषः पुरुषं. वृक्षः वृक्षं. रामः रामं. बालकः बालकं. चषकः चषकम्. अस्तु. अग्रजः. सो वट् विल् बिकम् द द्वितीया विभक्ति? एव्रिबडि केन् से इट् टुगेदर्. अग्रजः. अग्रजम्. अङ्कः अङ्कम्. अङ्कुरः अङ्कुरम्. अध्यापकः अध्यापकं. लैक् देट्. सो वी केन् मेक् सेण्टेन्सेस् यूसिङ्ग् द द्वितीया विभक्ति. सो लेट्स् गो थ्रू सम् आफ् मोर् आफ् द नौन् एक्साम्पल्स्. फोर् पुल्लिङ्ग् शब्दः ओन्लि. अश्वः अश्वम्. सो केन् सम्बडि रीड् फ्रोम् दिस्? Aparna Bhagini, can
yeah, if you could please blow it up a little because it's too font is too small.
Let me do.
Yeah, okay, no.
Better?
Yeah, better. Better. Agrajah agrajam, correct? अङ्कः अङ्कम्. अङ्कुरः अङ्कुरम्. आकाशः आकाशम्. आचमनीयः आचमनीयम्. आपणिकः आपणिकम्. आरक्षकः आरक्षकम्. आर्यपुत्रः आर्यपुत्रं पतिः पतिः वाट् विल् इट् बि ऐ डोण्ट् नो पतिः
पतिः
पतिः आसन्दः आसन्दीम्
आसन्दम्
आसन्दम् इन्द्रजालिकः इन्द्रजालिकम्
धन्यवादः एनिबडि एल्स् केन् दे जस्ट् रीड् अमित् महोदय मे बि यु केन् रीड्
ओके उद्यानपालकः उद्यानपालकम् उपग्रहम् उपस्करः उपस्करम् उपस्कराम् उपस्करम् कूर्मं कटः कपोतः कपोतं कर्दीपः कर्दीपम् कलङ्कः कलङ्कं कलाकारः कलाकारं कंसः कंसं काकः काकं
गुड गेस
कादम्बः कादम्बं कुकुटः कुकुटम्
धन्यवादः मे बि कृष्णन् महोदय डु यु वाण्ट् टु रीड् द नेक्स्ट् फ्यू लैन्स्
पुलालः पुलालं कुम्भकारः कुम्भकारं देशः देशं क्षत्रियः क्षत्रियं गजः गजं विषदः विजहम् कदः कदं फलः फलं क्षीरं कृतः कृतं गायकः गायकं घटः दशं कः
चटं
पुत्रपदङ्कः पुत्रपदङ्कं चोरः चोरम् शिक्षकः चोलः चोलं छात्रः छात्रं जनकः जनकं पिता पिताम् जम्बुकः जम्बुकं ज्वालकः ज्वालकं तडागः तडागं तण्डुलः तण्डुलम्
धन्यवादः महोदय धन्यवादः दीपन् महोदय डु यु वाण्ट् टु रीड् सम् आफ् द फ्यू एण्ड् देन् वी विल् कण्टिन्यू वित् द some more practice
tarkah tarkam talah talam trikonah trikonam dandah dandam dandadipam dantah dantam dantakurchah dantakurcham दर्पणः दर्पणं दीपः दीपं दीपकः दीपकं दूरनियन्त्रकः दूरनियन्त्रकं देवालयः देवालयम्
ओके एण्ड् देन् रामस्वामी महोदय केन् यू रीड् फ्यू
देशाः देशं गणस्युतः गणस्युतं गणिकः गणिकं धनिकं
धनिकं
धनिकः
धनिकं
गणिकः गणिकं गावकः गावकं यू हैव टु मूव इट अप धीरः धीरं धूमः धूमम् धूम निर्गमः धूम निर्गमम् द्वाजः द्वाजम्
ध्वजः ध्वजम्
ध्वजः ध्वजम् ध्वनि विस्तारकः ध्वनिविस्तारकम् नग नगः नगम्
नखः
नखः नखम् नारिकेलः नारिकेलम्
So now you got some idea. This is a long list, very I will obviously share with you guys. I will put the link in here in the chat window as well. If you want to look it in your computer, you can. You can make some sentences using the Dvitiya Vibhakti now. Oh, it's gone so blown up as well. So, like, here, like we explained before, like we said, Chitroshtha, the giraffe, Chitroshtha, Khadati, Chitroshtha, Kim Khadati, Chitroshtha, Parnam Khadati. So, Parnam becomes a Dvitiya Vibhakti. So, let's try now. We've introduced some of the words as well. Maybe using some of the words, you can make one, two sentences as per your wish. Anybody want to go first?
Krinati.
Kaha krinati. Balakaha krinati. Balakaha kim krinati. Balakaha dantakucharam krinati.
Balakaha dantakucharam krinati. Very good. धन्यवादः महोदय. अपर्णा भगिनी.
अग्रजः चित्रं लिखति. माता आहारं पचति.
अग्रजः चित्रं लिखति, माता आहारं पचति, अनुजः अग्रजः अनुजः अनुजं ताडयति. So big brother Ashvaha Dhavati. Ashvaha Dhavati will not have the Kriyapad Dvitiya Vibhakti. Ashvaha Khadati. Ashvaha Trinam Khadati. So it is not explained here, but some of the dhatus don't have the Dvitiya Vibhakti, like Dhavati. So there are two types of kriyapadam. One are the sakarmak, one are akarmak. Sakarmak means they have the object that they can do. Like pashyati. Pashyati, you can say pustakam pashyati, vriksham pashyati. There is a fruit out of it that you can say what it is. But there are like dhavati, so there is nothing that you have a word for it. Kam dhavati, ashvaha dhavati. So it is akarmak, that there is no karma phalam out of it. Akarmak kriyapadam. So just a little bit of addition to the slide. So let's see, Amit Mohde, next do you want to make some sentences?
I'm not confident, but Shikshikah Balakam Dhyanam Pathami Patanti.
So make a small sentence. Shikshikaha pathyati. Shikshika teaches, right? That's what you want to say.
Shikshikaha balakam pathan
pathyati. Pathyati to read, pathyati to teach.
Okay. Shikshikaha balakam pathyati.
Shikshikaha balakam pathyati. शिक्षिकः बालकं ताडयति शिक्षिकः बालकः जलम् आनयति सो ही ब्रिंग्स द वाटर ओके सो लाइक दैट देन धन्यवाद महोदय दैट वाज गुड दीपन महोदय
बालकः किं करोति बालकः दूरदर्शनं पश्यति
बालकः दूरदर्शनं पश्यति बालकः पश्यति बालकः किं पश्यति बालकः दूरदर्शनं पश्यति
बालकः किं खादति बालकः आम्रं फलं खादति
बालकः फलं खादति Although we have not done the Nipunsaklinka yet, this is only what we have seen here. It was only for the Pulling Shabdaha. But you can see the Nipunsaklinga Shabdaha. Here, Arakshakam, Anguliyakam, Anas, Phalam, Abhiyanam. So you, obviously in your own time, you can read all of that. Istriling Akaranta, like Adhyapika, Adhyapikam, Anuja, Anujam, Utpetika, Utpetikayam, Utpetikam, Upacharikam, Katham, Kapatikam, Agnipetikam.
Okay. One more question I want to tell. Usakim khadati, asoha, ghasam khadati.
Trinam khadati.
Trinam, okay. Trinam khadati. Trinam, okay.
Okay. So, then Ramaswami Mode?
Balakaha kridati. Balakaha. किं क्रीडति बालकः बाल्
सूर्येव बालकः क्रीडति बालकः इत्युक्ते कन्दुकेन क्रीडति बट् किं क्रीडति बालकः I don't know.
Game. Okay. Maybe I should use something else.
No, game like a cricket, kridati. But in cricket, a cricketam or cricket khelam kridati. You could just say cricket khelam.
I think I'll probably just make a very simple sentence, madam. Aham khadati.
Aham khadami. Khadami.
Aham bhojanam khadami.
So there is nothing wrong with trying to be a little bit more innovative. Not only simple is good, but sometimes you have to go try different words as well.
Okay.
So everybody is aware of this website, right? Yes, Mohde.
अहं रेल्वाङ्गणं गच्छामि
क्षम्यताम् अहं
रेल्वाङ्गणं गच्छामि रेल्वे स्टेशन् अण्ड् गोल्
या वेरि गुड् अहं भोजनालयं गच्छामि So here I was saying you could use any of the like khelim kheli khelim or khelam you could use this word that cricket khelim kridati So that word is okay. Okay, so now I think everybody is done, right? So let's so and then it's the nipunsak ling shabda, huh? We've seen some of the nipunsak ling shabda, huh? So it's still the same pushpam phalam. So in for example, in पुलिङ्ग् शब्दः दे वास् नो म एस् सच् वृक्षः अस्ति रामः अस्ति सो वी केन् एड् म टु द एण्ड् बट् फोर् निपुंसक लिङ्गः देर् इस् ओलरेडि म सो इट् डस् नाट् चेञ्ज् पत्र पत्रं पुष्पं पुष्पं फलं फलं पुस्तकं पुस्तकं सो देर् इस् नो चेञ्ज् बिट्वीन् द प्रथम एण्ड् द्वितीय विभक्ति देन् वी हेव् स्त्रीलिङ्ग् शब्दः शाटिका शाटिकां सो ऐ थिङ्क् हियर् वी हव् सीन् स्त्रीलिङ्ग् शब्दः छात्रा छात्रां छुरिका छुरिकां जलनलिकां सो ट्रै यू केन् मेक् अट् लीस्ट् 20-30 sentences, and if you want you can always send it to my email. I don't mind checking it out, or you can put it in the WhatsApp group. Write it on paper, and you can take the you can take the picture to send it via WhatsApp. So that is also possible. So now I think we've done quite a lot. It's time to sort of get into the habit of writing as well. So write it on, if you can type, that is okay. If you can't type on your mobile or computer in Devanagari, then just write it on a piece of paper, take a picture and send it via email or WhatsApp. So here are more examples of the same. Here what we have is Ikaranta. Putri becomes Putri. So Ikaranta here, there is a whole list of Ikaranta Shabda. Nadi, Nateen, Nadi, Nadeen, Nartaki, Nartakeen, Patti, Patteen, Patni, Patneen, Bharya, Bharyam, Patra Suchi, Patra Suchin. So we can continue making lots of sentences with it. So Alangati, Janikaha, Putrim, Alangati. जलकूपी जलकूपीम् अम्बा किं पूरयति अम्बा जलकूपीं पूरयति सो मे बी ऐ केन् जस्ट् रिक्वेस्ट् सम् आकारान्तः एण्ड् ईकारान्तः वाक्यद्वयं कृपया रचयतु So we can start with Aparna Bhagini. Can you do two sentences, one with Akaranta Sriling and another one with Ikaranta Sriling Shabdaha?
Okay. Aham Shatikam Dharayami.
Shatikam Dharayami, very good.
Dharayami, okay. Ashwa Akaranta Sriling. Sriling, okay. One minute, let me think.
I have given the word in front of you in the screen. Yeah. There are quite a few.
Okay. Trichakri kam. Aham trichakri kam chalayami.
त्रिचक्रिकां चालयामि वेरि गुड् अस्तु नेक्स्ट् रमेश्वर रामस्वामी महोदय
स्त्रीलिङ्गः
Both Srilinga, one Akaranta, one Ikaranta. So I have in front of you there are quite a few words.
Madam, once there you have. Complete, madam. Hello.
Yes, I'm listening.
Akaranta means exactly what, and Ikaranta means what in English.
Okay, I'll come to that in a minute. Let Ramaswamiji do the sentences. I will come to you. Okay, Ramaswamiji.
Think of an English sentence and then translate.
Okay.
Nauka chalati, nauka nadim chalati. Or nadyam chalati.
Nadyam chalati.
Oh, it's not nadim chalati. Okay.
So think of something very simple, like nartaki, nartaki nirtyati. Nirtyati actually is a karma kriya padam. So let me choose something. Putri asti. Putri asti. Putri matam vadati. Mata putrim tadyati. Mata putrim alangati. Alangati. Pitamahi asti. Pitamahi. Mata mahi. No?
Madam, I want that.
Yes. Go ahead, Krishnan Mohde.
Akaranta, Ikaranta, I asked for the explanation in English. Akaranta yes. Means what?
So when you are in, for example, you have this word, chhatra. So how would you write in English? You might write something like, let me do, just 1 second. Thank you, there we go. So you can see that's right. You can see that for there. Here, I will give you 1 second because there is noise. I will explain and then I'll you can unmute again. So here you are saying Sita. So you are saying Sita, Sita. So here in the end when you write, it is A. It ends with A, capital A. So when you write, say, Ramaha, Rama. So Rama, Kshamitam Rama. So it ends with A. Sita ends with A. So do you get it? That it's A Karanta. E. So now if we have to type Nadi, Nadi. Oh, Nadi. Nadi. So it's ending with E. E. Okay. E Karanta. So that's why we call it E Karanta. So Sita A Karanta, Ramaha A Karanta, Nadi E Karanta. So whatever ends with the vowel or the swara, that end, the sound that you get in the end, that is the meaning that it ends with that. E karanta, anta is ending in E, E karanta. A karanta, A karanta means ending in A, ending in E, ending in A. Ending in U. So, for example, if I have to write Guru, guru. So it's a ukaranta. Is that clear, Mohde?
Thank you. Thank
so
you, madam.
You're welcome. Swagatam. So here, in this sheet, what is done is that it's categorized in different, like it's, all of these are ending It's easy to remember.
Law, right.
Yeah, here we have like everything ending in E. That you can read in your time. Okay, so now you're able to make sentences, Mohde, two sentences, one with A Karanta, one with E Karanta.
Yes. Who, me, madam? Hello?
Hello?
So who yes? Are you addressing? I have to try?
Yes, please, if you kindly.
Special. Ramaha Ramaha Pita Dasarataha. Simple. Ramaha Pita Dasarataha. Lakshmi Vishnuka Vishnusya Vishnusya Patnihi.
But that is Ramasya Pitaha Dasharataha. Ramasya Patni Sita, that is Shashti Vibhakti that we've done before. Hmm. So here today we are doing the Dvitya Vibhakti.
So we
are saying and the whatever is the kriya padam, it's action, that fruit of that action, what it is, or the, that is the dvitya vibhakti. So accusative word.
Ramaha pustakam padati.
To make something different.
Ramaha. Vidyalayam gachati.
Ramaha vidyalayam gachati. Chhatraha vidyalayam gachati.
Similarly, for E Karanta, Vanaraha phalani khadati.
Vanaraha phalani khadati. But that is not ikaranta. Phalam shabdaha nipunsa klingaha shabdaha asti. If you look in it, phalam, phalani. Phalani is both. So, grammatically sentence is correct, but the request was to make ikaranta, akaranta, istriling shabdaha, dvitiya vibhakti. So,
what I can say
is Taruni Asti, Taruni, young woman. Taruni Asti.
Taruni Purata Asti, Purata Asti.
So Taruni Asti, Taruni, Taruni, Shikshika Asti, Shikshika Asti, Taruni Asti. So Shikshika Tarunim Ahuyati. Shikshika Tarunim Ahuyati. She calls the young woman. So Taruni, Tarunim. So Taruni is the Dvitya Vibhakti here, Tarunim.
Mashi, Mashi, Kupyam Asti.
Mashi Asti, Kupi Asti. But Kupi, so you have to think Mashi Asti, Mashi, Mashi. बट्
कुप्याम् अस्ति
हा कुप्याम् अस्ति बट् देर् इस् नो एक्षन् देर् somebody can bring it in, what can we do with the ink we can bring it we can what else action can happen with mushi with the ink
we can fill the ink to the pen filling what in the sentence Rama mushi kupyasya pen what we can say
so fill is more like you will put it in the filling with the purnam karoti or puryati so here like purnam or puryati puryati will be kupyam puryati mashim kupyam
mashi kupyam puryati
mashim
mashim mashim correct mashim kupyam puryati
okay amit you go ahead
pitamahi asti पौत्रीं रुडन्ति रुडन्ति पितामही पौत्रीं रुडन्ति सो द ग्राण्ड् मदर् मेड् द डाटर् ग्राण्ड् डाटर् क्राय् लैक्
सो
Yes,
because you are saying like patthi becomes pathati, rodati becomes, it becomes,
Rodanti? No,
that's not correct. Let me find out the right word for it. It is a good, it will be good for me as well. So to make somebody cry you normally have to make it the first word into there is vriddhi extra comes there so I'm not sure about the exact word for rodati I think will become rodayati I think it will become rodhyati. Rodhyati. Let me... I will come back to that next week.
Okay.
Correct form sure. for it. So okay. I don't want to give the wrong word for you.
Okay.
But it was good. You know the concept is correct.
Yeah.
Okay, Dhanyavad Mohit. And then Dipan Mohit.
आकरन्त शर्करा अहं खादामि अहं शर्करां खादामि
वेरि गुड् इकरन्त
इकरन्त नदीः अहं पश्यति अहं पश्यामि अहं नदीं पश्यामि
वेरि गुड् अहं नदीं पश्यामि So that is easy one. Very good. Then, okay. So we have done all the different forms. So I think that is good practice now. So here, the sarv shabdanam. So the pronouns. Pronouns. What are the pronouns for dvitiya vibhakti? Pathyati. शिक्षिकः पाठयति शिक्षिकः कं पाठयति पाठं पाठयति पाठं बिकम्स् द्वितीया विभक्ति बट् नौ वि इन्स्टेड् आफ् यूसिङ्ग् पाठं पाठं सो वि कुड् से इन्स्टेड् आफ् देट् वि कुड् यूस् द प्रोनौन् फोर् देट् सो शिक्षिकः एतं पाठं पाठयति कं पाठयति शिक्षिकः तं पाठं पाठयति So it is shikshakah tam patham pathyati, saha becomes tam, kaha becomes kam, pathah becomes patham, eshah etam. So he teaches, shikshakah teaches him, for example. So shikshakah tam patham shikshakah tam pathyati, he teaches him, shikshakah tam pathyati, he shikshakah teaches him the pathah. Then we will say shikshakah tam patham pathyati. So eshah etam. So if somebody is eshah balakah, esh shikshakah asti balakah asti, eshah balakah asti, balakah asti, eshah balakah asti, shikshakah asti, shikshakah etam balam pathyati. So shikshakah teaches this boy etam balakam pathyati. So he is teaching this boy. So we are saying he is teaching that boy. Then we will say tam balakam, this boy, etam balakam, tam etam. So let's see more example. So अञ्जनेयः अस्ति, अञ्जनेयः पर्वतं नयति, अञ्जनेयः पर्वतं नयति, अञ्जनेयः कं पर्वतं नयति, अञ्जनेयः सञ्जीवनी पर्वतं नयति, अञ्जनेयः तं पर्वतं नयति, अञ्जनेयः एतं पर्वतं नयति, अहं बालकः पुस्तकं पठति, बालकः एतं पुस्तकं पठ्यति, बालकः चषकः आनयति, बालकः एतं चषकम् आनयति, बालकः चषकम् आनयति, बालकः एतं चषकम् आनयति. So that is the pronoun that he brings this tumbler. So darpanaha asti. Aham darpanaha pashyami. Aham etam darpanam pashyami. Aham chashakaha chashakam pashyami. Aham पटलं पश्यामि, अहम् एतं पटलं पश्यामि, अहं जवनिका अस्ति, कर्टन्स्, जवनिका इस् कर्टन्स्, जवनिका अस्ति, अहम् एतां जवनिकां पश्यामि. स्त्रीलिङ्गशब्दः अस्ति अत्र, जवनिका स्त्रीलिङ्गशब्दः अस्ति. So let's go back to pulling shabda. So kadambaha asti, kadambaha asti, aham aham etam kadambam pashyami, kakaha asti, aham kakam pashyami, aham etam or aham tam kakam pashyami, khagaha asti, अहं तं खगं पश्यामि, कुक्कुटः अस्ति, अहम् एतं कुक्कुटं पश्यामि. सो इट् मेक्स् इट् ईज़ी इफ् यु आर् यूसिङ्ग् जस्ट् मेक् इट् इन् स्टेजेस् द सेण्टेन्सेस्. फस्ट् अहं पश्यामि, अहं कं पश्यामि, अहं कुक्कुटं पश्यामि, अहं कुक्कुटम्, अहं तं कुक्कुटं पश्यामि, ऐ लुक् एट् देट् काक्. Is that okay? Are you getting it? Is it clear?
Yes, ma'am.
Yes, it's okay.
Okay, so here मूषकः अस्ति, बिडालः अस्ति, बिडालः कं मूषकं पश्यति, बिडालः एतं मूषकं पश्यति, बिडालः एतं मूषकं मारयति, बिडालः बिडालः एतं मूषकं खादति. So anything, etam, tam. So let's see. Nodyati, nodyati to press something. Saha kim nikshatram nodyati, saha ujvalam nakshatram nodyati, saha tat nakshatram nodyati. So here what we have seen, nakshatram. Nakshatram is nipunsakling shabdaha asti. So here we have seen the pulling shabdaha. Here nakshatram is nipunsaklingaha. So here instead of tam, it's a tat. Etat, etat nakshatram nodyati. Saha, etat nakshatram nodyati. Saha, etat pustakam pathati. एतत् पुस्तकं पठति, सः एतत् फलं खादति, सः एतत् गृहं पश्यति, और तत् गृहं पश्यति. सो देन् वी हेव् स्त्रीलिङ्गशब्दः, स्त्रीलिङ्गशब्दः. Still mahila, okay. Still napunsakling shabda, huh? Pustakam, I've already done that. Okay. Striling shabda, huh? Sita, Sita, Sitam. So, esham, esha becomes etam, tam. Tam, tam namaskaroti, namaskaroti. Anjaneya, ताम सीताम नमस्करोति. सो आंजनेया बाउस टू दैट सीता, दैट दिस एंड दैट. सो देन कहा नश्यति, सह काम छुरिकाम नश्यति, सः अतीक्षा छुरिकां नश्यति. सो सः छुरिकां नश्यति, तां छुरिकां नश्यति. छुरिका छुरिकां, सः ताम, एषा एताम, का काम. सो सेम गोज विथ Ikaranta, that there is no change we are, as far as the pronouns are concerned. Taranti, harinaha, taranti. Harinaha, kam nadim taranti. Harinaha, yamuna nadim taranti. So, harinaha, tam nadim taranti. So, they swim that river. So, harinaha, tam nadim taranti. So I think we are finishing. We will do the practice about this next time. So you feel free to do the practice during the week. So I'm just typing the, I'm giving you the link to these slides as well in the chat window. You can always look at it. I will try to email sooner than later. So, Mahode, Krishna Mahode, last time you mentioned that you did not get the video recording. I think I uploaded it. So, did you get it?
I no. got it this time also, you please send it so that I can try in this week.
Sure. Okay, so now we can finish with the mantra. Sorry, somebody said something. Something?
Madam, one minute. Hello? Are you listening, madam?
Yes,
this
yes.
These slides also kindly please email it at the earliest so that I can try in the...
I have already put something in the chat window as well.
Send it in the email like what you have sent last time. Absolutely. Thank you.
Okay.
For that.
Okay. So let's do the mantra and we will do more practice. Do it all together. Okay. At the same speed, if we can do that.
सर्वे भद्राणि पश्यन्तु चित्तु भवे ॐ शान्ति शान्ति शान्तिः
हरिः ॐ
हरिः ॐ
धन्यवादः पुनः मिलामः अतः गुड वीक.